एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते संघीयतायाः समाह्वयान् प्रतिकृत्य अग्रिवर्धनस्य विकल्पो नास्ति। पोखरायाम् गतदिने आयोजितस्य अन्तरप्रदेश मुख्यमन्त्रिणाम् उपवेशस्य समापन सत्रम् सम्बोधयन् प्रधानमन्त्री प्रचण्डः संघीयताया विषये राजनीतिक स्तरे चिन्तनस्य एकरूपतायाः अभावात् आवश्यकानाम् अधिनियमविधीनाम् निर्माणे विलम्बः जायमानोऽस्तीति अवदत। प्रधानमन्त्री प्रचण्ड अकथयत् सर्वकारेण संघीय सर्वकारीय सेवा संघीय शिक्षा संघीय प्रहरी अधिनियमानाम् निर्माणाय प्रयत्यमानम् वर्तते। प्रधानमन्त्री प्रचण्ड अन्तरप्रदेश मुख्यमन्त्रिणाम् उपवेशेन निष्कासितस्य संयुक्त निष्कर्षस्य संयुक्त पत्रस्य विषये संघीय सर्वकारे गभीरेण विमृक्षते इति प्रतिबद्धताम् व्यक्तवान्। उपवेशे सहभागिभिः प्रदेशानाम् मुख्यमन्त्रिभिः प्रस्तुतानाम् विषयाणाम् सप्त दशसूत्रीयम् संयुक्त पत्रम् निर्माय प्रधानमन्त्रिणे प्रचण्डाय हस्तान्तरितम् आसीत्। तत्पूर्वम् उपवेशस्य उद्घाटन सत्रम् सम्बोधयता प्रधानमन्त्रिणा प्रचण्डेन संक्रमणस्य नाम्नि आर्थिक सामाजिक विकासाय विलम्बनस्य सौविध्यम् कस्यापि कृते नास्तीति उदीरितम् आसीत्। सभायाः गतदिवसीयोपवेशेन एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य विचारणा सम्बद्ध प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। राष्ट्रियसभाया ह्यस्तने द्वितीयोपवेशे अर्थमन्त्रिणा डा प्रकाश शरण महत इत्यनेन प्रतिनिधिसभातः ससन्देशं प्राप्तम् एतद् वैक्रमाब्दं विनियोजन विधेयकं विचार्यतामिति निगद्य प्रस्तावः प्रस्तुतः आसीत्। तत्पूर्वम् एतस्य विधेयकस्य सैद्धान्तिक विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री डा महत अगदद देशस्य समन्यायिकस्य समानुपातिकस्य च विकासस्य सुनिश्चयनत्वेन आयव्ययकम् विनियोजितम् वर्तते। सभायाः गतदिवसीयेन प्रथमोपवेशेन राज्यसंहिता सम्बद्धान् कतिचिन् नेपालादि नियमान् संशोधयितुम् निर्मितम् एतद् वैक्रमाब्दम् विधेयकम् पारितकृतम् वर्तते। उपवेशे विधिन्याय संसदीय विषय मन्त्रिणा धनराज गुरूङ इत्यनेन प्रस्तुतः प्रस्तावोऽसौ ध्वनिमतेन सर्वसम्मत्या पारितोऽभवत्। राष्ट्रियसभायाम् आषाढस्य अष्टादश दिवसतो द्वाविंशम् दिवसम् यावत् एतद् वैक्रमाब्दस्य विनियोजन विधेयकस्य विभिन्नानि शीर्षकाणि आधृत्य विमर्शनस्य आषाढस्य चतुर्विंशात् दिवसा षड्विंशम् दिवसम् यावत् विमर्शने उत्थापितानां प्रश्नानां विभागीय मन्त्रिभिः उत्तर प्रदानस्य च कार्यतालिका वर्तते। राष्ट्रियसभायाः अपरोपवेशः आषाढस्य अष्टादशे दिवसे सोमवासरे दिवा एकवादने वस्ता। कोशी प्रदेश सर्वकारस्य मुख्यमन्त्री हिक्मत कुमार कार्की विश्वासस्य मतं प्राप्तुम् असफल संवृत्तो वर्तते। प्रदेशसभाया ह्यस्तनोपवेशे मुख्यमन्त्रिणा कार्किणा प्रस्तुतस्य विश्वासस्य मतस्य प्रस्तावस्य पक्षे षड्चत्वारिंशद् मतानि विपक्षे च त्रयश्चत्वारिंशद् मतानि व्यक्तानीति सभामुखः बाबुराम गौतमः उदघोषयत्। प्रदेशसभायां विश्वासस्य मतं प्राप्तुं न्यूनतोऽपि सप्तचत्वारिंशद् मतानि आवश्यकानि भवन्ति। प्रदेशसभायाः त्रिनवतेः सम्पूर्ण सदस्य संख्यायाः मध्ये ह्यस्तनोपवेशे ऊननवतिः प्रदेशसभा सदस्याः उपस्थिताः आसन्। सर्वकारेण देशस्य विभिन्नानि सप्तस्थानानि औद्योगिक ग्रामान् उद्घोष्टुम् निर्णीतमस्ति। अस्यैव आषाढस्य द्वादश दिवसस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुम् इह संचार सूचना प्रविधि मन्त्रालये आयोजिते नियमित पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा कालीकोट जनपदस्य राजकोट नगरपालिकाया षष्ठवडा क्षेत्रम् नरहरिनाथ ग्रामपालिकाया द्वितीयवडा क्षेत्रञ्च औद्योगिक ग्रामम् उद्घोष्टुम् निर्णीतमस्ति इति अवोचत्। एवमेव उपवेशेन बाँके जनपदस्य राप्ती सोनारी ग्रामपालिकायाः चतुर्थवडा क्षेत्रम् पाल्पा जनपदस्य रम्बा ग्रामपालिकायाः तृतीयवडा क्षेत्रम् अर्घा खाँची जनपदस्य शीतगंगा ग्रामपालिकायाः त्रयोदशवडा क्षेत्रम् पर्सा जनपदस्य जगरनाथपुर ग्रामपालिकायाः पञ्चमवडा क्षेत्रम् बारा जनपदस्य महागढ़ी माई नगरपालिकायाः पञ्चमवडा क्षेत्रम् चेति आहत्य सप्तस्थानानि औद्योगिक ग्रामान् उद्घोष्टुम् निर्णीतमिति प्रवक्ता मन्त्री शर्मा अज्ञापयत्। एवमेव उपवेशेन नेपाल दूरसंचार प्राधिकरणस्य आपण व्यवस्थापन सदस्य पदे बर्दिया जनपदस्य नवराज अधिकारिणं नियोक्तुं निर्णीतमस्ति। उपवेशेन संयुक्त राष्ट्रसंघस्य आयोजनायां न्यूयॉर्कस्थाने आयोक्ष्यमाणे सबल विकासाय उच्चस्तरीय सम्मेलने सहभागितायै राष्ट्रिय योजनायोगस्य उपाध्यक्षस्य डा मीनबहादुर श्रेष्ठस्य नेतृत्वस्य प्रतिनिधिमण्डलं संघटयितुम् अस्यैव आषाढस्य चतुर्विंशात् दिवसात् पञ्चविंशं दिवसं यावत् चीनदेशस्य बेजिंग स्थाने आयोक्ष्यमाणे विकास प्रक्रियायाः विषये अन्तर्राष्ट्रियानुभव विषय सम्मेलने भागं ग्रहीतुमपि उपाध्यक्षाय डा मीनबहादुर श्रेष्ठाय एव स्वीकृतिं दातुञ्च निर्णीतमिति मन्त्री शर्मा अबोधयत्। काष्ठमण्डपस्थ विशेष न्यायालयेन नेपाल तैल निगमस्य पूर्व कार्यकारी निर्देशकं गोपाल बहादुर खड्गाविदं भ्रष्टाचार न्यायिक प्रकरणे दोषिणं निर्णीय कारावासनं वित्तीय दण्डनं च श्रावितेस्तः। विशेष न्यायालयस्य छस्य श्रीकान्त पौडेलस्य शालिग्राम कोइराला खुशी प्रसाद थारू चेत्यनयोश्च न्यायपीठेन इह मासत्रयाधिकैक वर्षस्य कारावासनस्य नवकोटिनाम् एकोनविंशतिर्लक्षाणां षट्शताधिक षट्सहस्राणां च रूप्यकाणां हानिवित्तस्य तत्परिमाणस्य धनदण्डनस्य च निर्णय श्रावितः इति विशेष न्यायालयस्य प्रवक्ता दीपेन्द्रनाथ योगी अवोचत्। न्यायालयेन कारावासन धनदण्डनाभ्यां सह खड्गाविधस्य नाम्नि विद्यमानः गृहभूमि कोषागारीय संचित वित्तम अंशभागिताम अन्या सम्पत्तिश्च अधिग्रहीतुमपि निर्णीतमिति प्रवक्ता योगी अगदत्। अधिकार दुरूपयोगानुसन्धान आयोगेन खड्गा इत्याख्येन अष्टादश कोटीनां षट्षष्टिर्लक्षाणां च रूप्यकाणां परिमाणस्य सम्पत्ति अर्जितेति प्रमाण प्रस्तुति पुरस्सरं पञ्चसप्तत्यधिक द्विसहस्रतम वैक्रमाब्दस्य पौष मासस्य त्रयोविंशे दिवसे विशेष न्यायालये भ्रष्टाचार सम्बद्धं न्यायिक प्रकरणं पञ्जीकारितम् आसीत्। खड्गाविदस्य पत्न्या शर्मिला खड्का विधाया अमिता लामा इत्याख्यायाश्च नाम्नि असीमित रूपेण अर्जिता सम्पद गोपायिता इति हेतो ता सर्वा सम्पत्तय अधिग्रहीतव्या इति आयोगेन न्यायिक प्रकरणे सत्वाभियाचनं विहितम् आसीत्। सर्वोच्च न्यायालयेन ललिता निवासस्य भूम्याः अपचलनस्य प्रकरणे निगृहितै त्रिभिः जनैः पञ्जीकारिते बन्दी प्रत्यक्षीकरणस्य आदेशाभियाचन निवेदने कारण प्रदर्शनादेशः प्रदत्तोऽस्ति। सर्वोच्च न्यायालयस्य प्रवक्ता विमल पौडेलः आदेशाभियाचन निवेदनस्य श्रवणं विधाय न्यायपीठेन इह विषयेऽस्मिन् सप्रमाणं कारणं प्रस्तुतम् आदेशः प्रदत्तोऽस्ति इति अज्ञापयत्। प्रहरिणः केन्द्रीयानुसन्धान निकायेन निग्रहणानन्तरम् अस्यैव आषाढस्य त्रयोदशे दिवसे पूर्व निर्वाचन आयुक्तस्य सुधीर कुमार शाहस्य भाडभटिनी सुपरमार्केट आपणागारस्य संचालकस्य मीनबहादुर गुरूङ इत्यस्य भूशुल्क कार्यालयस्य पूर्व कर्मचारिणः धर्मप्रसाद गौतमस्य च पक्षतः बन्दी प्रत्यक्षीकरणस्य आदेशाभियाचन निवेदनं पञ्जीकारितम् आसीत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति अधीत्य वृत्तिपार्जनाय विदेश पलायनस्य अपेक्षया नेपाले एव अवसरस्य अन्वेषणं श्रेयस्करं वर्तते। चितवन जनपदस्य कृषि वन विज्ञान विश्वविद्यालये ह्य आयोजिते कार्यक्रमे अध्यक्ष ओली नेपाले किमपि न भवति इति उक्त्वा विदेश गमनस्य अपेक्षया कृषिकर्मणा अवसर अन्वेष्टुं शक्यते इति अवोचत। कृषिकर्म आधुनिक प्रविधिना कर्तुं शक्यते इति भाषमाण अध्यक्ष ओली देशाय आवश्यकम् अन्नम् आत्मनैव उत्पादनीयम् इति अवोचत। अध्यक्ष ओली उत्पादितानां वस्तूनां विक्रयणस्य अभावेन मार्गे त्यजनस्य क्रमं रुद्धुं प्रविधेः प्रयोगेण उत्पादित वस्तूनां सुरक्षित भण्डारणाय बलं प्रादात् इति समाचारः।